अथ श्रीसूक्तम् ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो मावह तामावह जातवेदो लक्ष्मी मनपगामिनीं यस्यां हिरण्यं विन्देयं गामश्वं अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीं श्रियं देवीमुपह्वये श्रीर्मा देवी जुषतां कां सोऽस्मितां हिरण्यप्राकारामार्द्राय ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णान् तामिहोपह्वये श्रियम् चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीं शरणं प्रपदे अलक्ष्मीर्मे नश्यतां त्वां वृणे आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तो यान्तरायाश्च बाह्यालक्ष्मीः उपैतुमान् देवसखक् कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे क्षुत्पिपासामलायै ज्येष्ठामलक्ष्मीनाशयाम्यहम् अभूतिमसमृद्धै च सर्वान्निर्णुदमे गृणात् गन्धद्वारान् दुराधर्षान् नित्यपुष्टां करीषिणीम् ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् मनसः काममाकूतिं वाचः सत्यमशीमहि पशूनां रूपमन्नस्य मयि श्रीश्रयतां यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दम श्रियं वासयमे कुले मातरं पद्ममालिनीं आपसृजन्तु स्निग्धानि चिक्लीतवसमे गृहे मे च देवीं मातरं श्रियं वासय मे कुले आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीं चंद्रां हिरण्मयीं जातवेदोमावह आर्द्रां यक्करिणीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मी जातवेदो मावह तामावह जातवेदो लक्ष्मी मनपगामिनी यस्यां हिरण्यं प्रभूतंगावो दास्योश्वान् विन्देयं पुरुषानहं यशुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् सूक्तं पैच दशर्चैच श्रीकामस् सततै जपे पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व पद्मानने पद्म उरु पद्माक्षि पद्मसंभवे तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम् अश्वदायि गोदायि धनदायि महाधने धनं मे जुषतां देवि सर्वकामांश्च देहि मे पुत्रपौत्रधनं धान्यम् हस्त्यश्वाश्वतरीरथम् प्रजानां भवसि माता आयुष्मन्तं करोतु मे धनमग्निर्धनं वायुर्धनं सूर्यो वसुः धनमिन्द्रो बृहस्पतिर्वरुणो धनमश्विना वैनतेय सोमं पिबतु वृत्रः सोमं धनस्य सोमिनो मय्यं ददातु सोमिनः न क्रोधो न च मात्सल्यन् न लोभो नाशुभामतिः भवन्ति कृतपुण्यानां भक्त्या श्रीसूक्तजापिनां सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोगे त्रिभुवन भूतिकरे प्रसीदमयम् विष्णुपत्नीं क्षमां देवीं माधवी माधवप्रियां लक्ष्मीप्रियसखीं भूमिं नमां यच्युतवल्लभां महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात् आनन्दक कर्दमश्रीदश चिक्लीत इति विश्रुताः ऋषयश्रियः पुत्राश्च श्रीर्देवीर्देवतामताः ऋणरोगादिदारिद्र्य पापक्षुदपमृत्यवः भयशोकमनस्तापानश्यन् तु मम सर्वदा श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाचोभमानं महीयते धनं धान्यं पशुं बहुपुत्रलाभम् शतसंवत्सरं दीर्घमायुः इति रुपरिशिष्टोक्तं श्रीसूक्तं सम्